एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभायाः गतदिवसीय उपवेशे प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य अवरोधस्य मध्ये गृहमन्त्री बालकृष्ण खाँडे एतत् विक्रमादीयं राजनैतिक दल सम्बद्धम् अध्यादेशं प्रस्तौत्। सभामुखेन अग्निप्रसाद सापकोटा विधेयन अध्यादेशं प्रस्तोतुं समयः प्रदत्ता। तदनु विरोधस्य मध्ये गृहमन्त्री खाँडे अध्यादेशमुं प्रस्तौत्। तत्पूर्वम् उपवेशः एमाले दलीय सांसदानां समागोषोच्चारणसहितस्य अवरोधस्य कारणात् वारद्वयं प्रतिवारं पञ्चदश कलानां कृते सभामुखेन स्थगितकृतः आसीत्। प्रतिनिधिसभायाः नवमाधिवेशनस्य प्रथमोपवेश प्रारभणस्य अनुपदमेव नेकपा एमाले दलस्य सांसदैः दलस्य चतुर्दश सांसदानां दण्डनस्य सम्बन्धे सभामुखेन दल विभाजनस्य कार्यं कृतमिति आरोपयद्भिः यथास्थितौ उपवेश चालयितुं नदीयते इत्युक्त्वा उत्थाय विरोधः ज्ञापितः आसीत्। विरोधस्य वैपरीत्येन उपवेशे सभामुख अग्निप्रसाद सापकोटा अधिवेशनस्य आह्वान सम्बद्धं राष्ट्रपति कार्यालयात् प्राप्तं पत्रम् अश्रावयत्। एमाले दलीय सांसदानां विरोध सततम् सञ्चलनम् अनु सभामुख सापकोटा नेकपा एमाले दलस्य प्रमुख सचेतकाय विशाल भट्टराई इत्यस्मै वक्तुम् समयम् अददात्। उपवेशे प्रमुख सचेतक भट्टराई विगत समये दलस्य निर्देशनस्य अवज्ञायाः कारणेन जसपा दलीय सांसदा सरिता गिरी माओवादी केन्द्रस्य चत्वार सांसदाश्च पदमुक्ताः कारिताः। परम् इदानीम् एमाले दलस्य चतुर्दश सांसदाः निर्देशनस्य उल्लङ्घने विहिते सत्यपि कथं पदमुक्ताः न कारिताः इति अपृच्छत्। असौ स्वयं सभामुख एव एमाले दलस्य विभाजने सन्नद्धोस्तीति आरोपयत्। तदनु नेकपा एमाले दलस्य सांसदै समाघोषान् उच्चार्य भाषणमञ्च परिवेष्टितः आसीत्। प्रतिनिधिसभायाः अपरोपवेश स्व शुक्रवासरे दिवा एकवादने वस्ता। राष्ट्रिय सभायाः गतदिवसीयोपवेश प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य अवरोधस्य कारणेन स्थगितोऽभवत्। प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य सांसदानां निरन्तरं समाघोषोच्चारणस्य अवरोधनस्य च कारणेन राष्ट्रिय सभायाः अध्यक्ष गणेश प्रसाद तिमलसिन्हा उपवेशम् अस्थगयत्। राष्ट्रिय सभायाः अपरोपवेश स्व शुक्रवासरे दिवा एकवादने वस्ता। प्रधानमन्त्री शेरबहादुरदेउवा गदति सदनस्य सञ्चालनाय सत्तापक्षेण प्रतिपक्षेण च मिलित्वा अग्रे वर्धनीयम्। संसद नवमाधिवेशनस्य प्रारम्भात् पूर्वं सिंहप्रासादवर्तिनी प्रधानमन्त्री कार्यालये ह्य उपविष्टे सत्ता गठबन्धनस्य दलानां शीर्षनेतृणाम् उपवेशे प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च देउवा अवासत। विधौ प्रक्रियायां प्रणाल्याञ्च सहमतिं धृत्वा अग्रे वर्धनीयम्। उपवेशे प्रधानमन्त्रिणा देउवा विधेयेन सदनस्य सञ्चालन सहजीकर्तुं भूमिकाया निर्वहणाय सत्ता गठबन्धनस्य नेतारः अनुरुद्धः इति उपवेशस्य पश्चात् नेकपा माओवादी केन्द्रस्य नेता देवगुरुङ ज्ञापितवान्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः आत्मभि संविधानस्य विदेश च अनुसारेणैव नूतनं दलं संघटितम् इति गदति। प्रतिनिधिसभायाः ह्यस्तनोपवेशे प्रमुख प्रतिपक्षिणा नेकपा एमाले दलेन नेत्रा नेपालेन सहितानां नेतृणां दण्डनाय विहितं परामर्शनं न क्रियान्वितमिति प्रसंगे विहितस्य विरोधस्य सम्बन्धे उपवेशात् बहिर्निष्क्रमणस्य क्रमे पृष्ठे प्रश्ने अध्यक्ष नेपालः दलस्य विभाजनाय विधिसम्मत व्यवस्थायाः उच्च न्यायालयस्य विगतस्य निर्णयस्य पूर्वप्रमाणस्य च आधारेण आत्मभि अग्रे वर्धित इत्यवोचत्। अध्यक्ष नेपाल एवंविध विषयस्य उत्थापनस्य आत्मनाम दण्डनाय तेषां कथनस्य च अर्थं नास्तीति च अवासत। नेकपा एकीकृत समाजवादी दलेन संसदीय दलस्य विधानं पारितकृतं वर्तते। नेकपा संसदीय दलस्य अध्यक्षस्य माधव कुमार नेपालस्य अध्यक्षतायां पूर्वेद्य उपविष्टेन उपवेशेन विधानमेतत् पारितकृतमस्ति। संसदीय दलस्य विधानस्य पारितीकरणेन सहैव दलेन संघटिता विधान प्रारूप समिति विघटिता वर्तते। अद्य भाद्र शुक्ल तृतीया तिथौ हिन्दू महिला उपवास पुरस्सरं हरितालिकायाः व्रतम् आचरन्ति। अस्मिन् पर्वणि उमा महेश्वरयोः पूजनस्तवने विधीयते। अस्य व्रतस्य प्रभावेण अविवाहिताः महिलाः सुयोग्य वरम् विवाहिताश्च अखण्ड सुख सौभाग्ये लभन्ते इति शास्त्रीयं वचः उपलभ्यते। पुरा हिमालय तनया उमा पशुपतिम् बरिपतिम् बरितुकामा निर्जलम् उपोष्य व्रतमिदम् समाचरत्। यस्य प्रभावेण सा स्वाभिलषितम् पतिम् अवाप। ततः प्रवृत्ति सौभाग्य कामासु नारीषु अस्य व्रतस्य अनुष्ठान परम्परा प्रारब्धेति हरितालिकायाः महत्वस्य सम्बन्धे इति वृत्तम् उपलभ्यते। अस्मिन् दिने नूतनानि वसनानि विविधानि आभूषणानि च परिधाय भजनकीर्तन नर्तनादिषु व्यापृताः नार्यः श्रीपशुपतिमन्दिरे अन्येषु शिवालय परिसरेषु च दृश्यन्ते। पत्युश्चिरायुष्य कामनया दाम्पत्यजीवनस्य सुखाभिलाषेन च व्रतमिदं हिन्दुमहिलासु प्रचलितमस्ति। उपलक्ष्यस्मिन् सन्देशं ददत्या राष्ट्रपतिना विद्यादेवी भण्डारिणा सांस्कृतिक धार्मिक पर्वण रूपेण हरितालिकायाः महत्वपूर्णं स्थानं वर्तते इत्युक्तमस्ति। हरितालिका पर्वण मौलिकतां संस्थाप्य सांस्कृतिक महत्वं संरक्षितुम् अस्मिन् पर्वणि कदाचित् दृष्ट्योः उच्छृङ्खलता व्यशीलतयोः निवारणम् अत्यावश्यकम् अस्तीति राष्ट्रपतिना भण्डारिणा सन्देशे उक्तमस्ति। उपलक्ष्यस्मिन् शुभकामना सन्देशं ददता उपराष्ट्रपतिना नन्दबहादुर पुन इत्यनेन परम्परागत मूल्य मान्यता अनुसृत्य स्वकीय स्वास्थ्यं विचार्य च हरितालिका पर्व समायोजयितुं भगिन्यः अनुरुद्धाः सन्ति। एवमेव प्रधानमन्त्रिणा सेवादेवा विधेन प्रदत्ते सन्देशे हरितालिका पर्व नेपाली समाजे विद्यमानानां लैंगिक जातीय वर्गीय भेदानां सर्वविधानां असमानतानां च अन्तेन सामाजिक सद्भाव सहिष्णुता मेलानां प्रवर्धन पुरस्सरं समुन्नत समाजस्य निर्माणाय प्रेरणां ददातु इति शुभकामना व्यक्ता वर्तते। कोविड 19 कारणेन हर्षोल्लासपूर्वकं पारिवारिक मेलनेन आयोजनम् अवरुद्धं सदपि महामार्याः एतस्याम् अवस्थायां स्वास्थ्य मापदण्डान् परिपाल्य हरितालिका पर्वण मौलिकतां सांस्कृतिक महत्वं च संरक्ष्य पर्वेदम् आयोजयितुं प्रधानमन्त्रिणा देवाभिधेन सर्वे अनुरुद्धाः सन्ति। नेपालस्य राजनीतौ साहित्य च महत्वपूर्ण योगदानं दत्तवतः प्रथम जननिर्वाचित प्रधानमन्त्रिणः बीपी कोइरालाभिधस्य 78वीं जन्मजयन्ती विभिन्नान् कार्यक्रमान् विधाय अद्य आराष्ट्रं समायोज्यमाना वर्तते। बीपी जयन्त्याः अवसरे कांग्रेसदलेन भातृ शुभेच्छुक संस्थाभिः बीपी संग्रहालयेन च आराष्ट्रं विभिन्नाः कार्यक्रमाः आयोजिताः सन्ति। कांग्रेसदलेन चतुर्दश महाधिवेशनस्य क्रमे एव बीपी जयन्ती समायोज्यते। अवसरेऽस्मिन् बीपी संग्रहालयेन कांग्रेसदलस्य प्रवक्तुः विश्वप्रकाश शर्मणः प्रमुखातिथ्ये विशेष कार्यक्रमः आयोजितो वर्तते। एतस्मिन् वर्षेऽपि नवीन प्रजात्या सहितस्य कोरोना विषाणो संक्रमणस्य संकटस्य विद्यमानतायाः कारणेन भौतिक दूरीं संस्थाप्य मुखावरणिकां परिधाय जुम दृश्य विस्तर प्रविधेः माध्यमेन वा कार्यक्रमम् आयोजयितुं कांग्रेसदलम् आह्वयति। अमेरिका देशीय सहयोग परियोजनया अस्यां परियोजनायां कोऽपि सैन्य गठबन्धनस्य विषय नास्तीति स्पष्टीकृतं वर्तते। नेपाल सर्वकारेण सम्प्रत्येव अस्याः परियोजनायाः विषये पृष्ठान् सर्वविधान् प्रश्नान् उत्तरयन्ती परियोजनायाः संविधा क्रियान्वयन विभागस्य उपाध्यक्षा फातेमा जे सुमार अर्थमन्त्रिणं जनार्दन शर्माणं सम्बोध्य उत्तरमेतत् प्रादात्। असौ अर्थमन्त्रिणे शर्मणे पत्रं विलिख्य सहयोग परियोजनायाः अभ्यन्तरे कोऽपि गुप्तः विषयः नास्तीति स्पष्टीकुर्वन्ति अवोचत् नेपाले असत्यप्रवादः प्रसारितो वर्तते। सर्वकारेण गत माघमासे प्रारब्धस्य कोरोना विषाणो प्रतिरोधिना टीकाकरणस्य अभियानस्य अन्तर्गतम् अधुनावधि टीकाकरणस्य 1,07,49,000 64.6% च मात्रा आयिता सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। स्वास्थ्य मन्त्रालयस्य ह्यस्तने संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता डाक्टर कृष्ण प्रसाद पौडेल अधुनावधि 65,83,161 जनै कोरोना विषाणो प्रतिरोधिना टीकाकरणस्य प्रथम जनै पूर्णमात्रा गृहीतेति च अज्ञापयत् इति समाचारः।